तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः उमातनौ गूढतनोस्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम्।
तस्या इति अष्टमूर्तिः शिवः तस्मात् ईश्वरात् शङ्कते इति तच्छङ्किनः तद्भीतस्येत्यर्थः। अत एव उमातनौ उमाशरीरे गूढतनोः गुप्तशरीरस्य स्मरस्य पूर्वम् प्ररोहम् इव प्रथमाङ्कुरमिव स्थितम् शैलगुरूपनीतम् शैलगुरुणा हिमवता उपनीतम् प्रापितम् अथवा शैलगुरुणा हिमवत्पुरोधसा उपनीतम् ताम्राङ्गुलिम् रक्ताङ्गुलिम् तस्याः पार्वत्याः करम् जग्राह।
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य।
रोमोद्गम इति उमायाः रोमोद्गमः रोमाञ्चः प्रादुरभूत्। पुमान्गौः पुङ्गवः वृषभः गोरतद्धितलुकी इति टच्। स केतुः चिह्नम् यस्य सः पुङ्गवकेतुः शिवः स्विन्नाङ्गुलिः आसीत्। अत्र उत्प्रेक्षते पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा तयोः वधूवरयोः मनोभवस्य वृत्तिः अवस्थितिः समं विभक्तेव समीकृतेवेत्यर्थः। प्राक्सिद्धस्यापि अनुरागसाम्यस्य सम्प्रति तत्कार्यदर्शनात् पाणिसंस्पर्शकृतत्वम् उत्प्रेक्ष्यते। ननु कन्या तु प्रथमसङ्गमे स्विन्नकरचरणा भवति पुमांस्तु रोमाञ्चितो भवतीति वात्स्यायनेन विपरीतम् उक्तमिति चेत् नैष दोषः। एभिः अनयोः भावम् परीक्षतेति वाक्यशेषः एभिरिति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्विकोपलक्षणत्वावगमेन अनियमावधारणात्। अत एव रघुवंशे अन्यथाभिधानात् स्वोक्तिविरोध इत्यपास्तम्। तदेतत् रघुवंशसञ्जीविन्याम् सुव्यक्तम् अवोचम्। सात्विकास्तु स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू अश्रुवैश्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः इति।
प्रयुक्तपाणिग्रहणम् यदन्यत् वधूवरम् पुष्यति कान्तिमग्र्याम् सान्निध्ययोगादनयोस्तदानीम् किम् कथ्यते श्रीरुभयस्य तस्य।
प्रयुक्तेति यत् यस्मात् कारणात् प्रयुक्तम् पाणिग्रहणम् यस्य तत् तथोक्तम् अन्यल्लौकिकम् वधूश्च वरश्च वधूवरम् समाहारे द्वन्द्वैकवद्भावः। तदानीम् पाणिग्रहणकाले अनयोः उमाशिवयोः सान्निध्ययोगात् सन्निधिभावात् अग्र्याम् उत्तमाम् कान्तिम् शोभाम् पुष्यति पुष्णाति तस्य उभयस्य उमामहेश्वररूपस्य मिथुनस्य श्रीः किम् कथ्यते। यत्प्रसादात् अन्यस्य शोभालाभः तस्य शोभा किमु वक्तव्या इत्यर्थः। विवाहसमये गौरीशिवौ वधूवरौ अनुप्रविशेताम् इत्यागमः।
प्रदक्षिणप्रक्रमणात् कृशानोः उदर्चिषस्तन्मिथुनम् चकासे मेरोरुपान्तेष्विववर्तमानम् अन्योन्यसंसक्तमहस्त्रियामम्।
प्रदक्षिणेति तन्मिथुनम् उदर्चिषः उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात् चकासे किमिव मेरोः उपान्तेषु परिसरेषु वर्तमानम् आवर्तमानम्। मेरुम् प्रदक्षिणीकुर्वदित्यर्थः। अन्योन्येन संसक्तम् सङ्गतम् मिथुनस्यापि एतद्विशेषणम्। अहश्च त्रियामा च अहस्त्रियामम् रात्रिन्दिवमिव समाहारे द्वन्द्वैकवद्भावः।
तौ दम्पती त्रिः परिणीयवह्निम् अन्योन्यसंस्पर्शनिमीलिताक्षौ सकारयामास वधूम् पुरोधाः तस्मिन् समिद्धार्चिशिलाजमोक्षम्।
ताविति सः पुरस्तादेव हितम् विधत्ते इति पुरोधाः पुरोहितः अन्योन्यस्य संस्पर्शेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती कर्मभूतौ। जायाशब्दस्य दम्भावो निपातितः। वह्निम् त्रिः त्रिवारम् द्वित्रिचतुर्भ्यः सुच् इति सुच् परिणीय परितो नीत्वा प्रदक्षिणीकार्या इत्यर्थः। नयतेः द्विकर्मकात् ल्यप् समिद्धार्चिषि दीप्तज्वाले तस्मिन् वह्नौ वधूम् लाजमोक्षम् लाजविसर्गम् कारयामास। हृक्रोरन्यतरस्याम् इति विकल्पात् अणिकर्तुः कर्मत्वम्।
सा लाजधूमाञ्जलिमिष्टगन्धम् गुरूपदेशाद्वदनम् निनाय कपोलसंसर्पिशिखः स तस्याः मुहूर्तकर्णोत्पलताम् प्रपेदे।
सेति सा वधूः गुरोः पुरोधसः उपदेशात् इष्टः। घ्राणतर्पण इत्यर्थः। गन्धो यस्य तम् लाजधूमाञ्जलिम् वदनम् निनाय कपोलसंसर्पिणी शिखा यस्य सः तथोक्तः स धूमः तस्याः गौर्याः मुहूर्तकर्णोत्पलताम् प्रपेदे। धूमस्य विसृमरत्वात् मुहूर्तग्रहणम्।
तदीशदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागमक्ष्णोः वधूमुखम् क्लान्तयवावतंसम् आचारधूमग्रहणाद्बभूव।
तदिति तद्वधूमुखम् आचारधूमग्रहणात् आचारप्राप्तधूमत्वात् ईषत् आर्द्रे स्विन्ने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम्। अक्ष्णोः उच्छ्वासि उद्गच्छत् कालाञ्जनस्य रागः अञ्जनम् यस्य तत्तथोक्तम्। क्लान्तः यवावतंसः यवाङ्कुरकर्णपूरः यस्य तत्तथाभूतम् बभूव। లాజాంజలిం విసృజ్య ధూమాగ్రం జిఘ్రేత్ ఇతి ప్రయోగవృత్తికారః.
వధూం ద్విజః ప్రాహ తవైష వత్సే వన్హిర్వివాహం ప్రతికర్మ సాక్షీ శివేన భర్త్రా సహ ధర్మచర్యా కార్యా త్వయా ముక్త విచారయేతి.
వధూమితి అథ వధూం ద్విజః పురోధాః ప్రాహ కిమితి. హే వత్సే, ఏష వన్నిః తవ వివాహం ప్రతి వివాహకర్మణి ఇత్యర్థః. కర్మసాక్షీ కర్మద్రష్ట, భర్త్రా శివేన సహ ముక్తవిచారయా నిర్విచారయా త్వయా ధర్మచర్యా ధర్మాచరణం కార్యా కర్తవ్యా ఇతి. అయం చ ప్రాజాపత్య వివాహః ద్రష్టవ్యః. యథాః ఆశ్వలాయనః సహధర్మం చరేదితి ప్రాజాపత్యః ఇతి.
ఆలోచనాంతం శ్రవణే వితత్య పీతం గురోస్తద్వచనం భవాన్యా నిదాఘకాలోల్బణతాపయేవ మాహేంద్రమంభః ప్రథమం పృథివ్యా.
ఆలోచనాంతమితి భవస్య పత్న్యా భవాన్యా ఇంద్రవరుణభవశరువరుద్ర ఇత్యాదినా ంగీష్ ఆనుగాగమశ్చ. ఆలోచనాంతం నేత్రాంతపర్యంతం ఆంగ్ మర్యాదాభివిధ్యోః ఇత్యవ్యయీభావః. శ్రవణే శ్రోత్రే వితత్య విస్తార్య తత్ పూర్వోక్తం గురోః యాజ్ఞికస్య వచనం సహధర్మం చర ఇతి వాక్యం నిదాఘకాలే గ్రీష్మకాలే ఉల్బణతాపయా ఉత్కటసంతాపయా పృథివ్యా ప్రథమం ఆద్యం మాహేంద్రం పార్జన్యం అంభ ఇవ పీతం అత్యాదరేణ శుశ్రావ ఇత్యర్థః.
ధ్రువేణ భర్త్రా ధ్రువదర్శనాయ ప్రయుజ్యమానా ప్రియదర్శనేన సా దృష్ట ఇత్యాననమున్నమయ్య హ్రీసన్నకంఠీ కథమప్యువాచ.
ధ్రువేణేతి ప్రియం దర్శనం యస్య కర్మభూతస్య తేన ప్రియదర్శనేన ధ్రువేణ శాశ్వతేన భర్త్రా ధ్రువస్య నక్షత్రవిశేషస్య దర్శనాయ. ధ్రువో బభేదే క్లీవంతో నిశ్చితే శాశ్వతే త్రిషు ఇత్యమరః. ప్రయుజ్యమానా దృశ్యతామితి ప్రేర్యమాణా హ్రీసన్నకంఠీ హ్రియా హ్రీనస్వరా సా వధూః కథమపి ఆననం ఉన్నమయ్య దృష్ట ఇత్యువాచ.
ఇత్థం విధిజ్ఞేన పురోహితేన ప్రయుక్త పాణిగ్రహణోపచారౌ ప్రణేమతుస్తౌ పితరౌ ప్రజానాం పద్మాసనస్థాయ పితామహాయ.
ఇత్థమితి ఇత్థం అనేన ప్రకారేణ ఇదమస్థముః ఇతి తము ప్రత్యయః. విధిజ్ఞేన వివాహ ప్రయోగజ్ఞేన శాస్త్రజ్ఞేనేత్యర్థః. పురోహితేన హైమవతేన ప్రయుక్తపాణిగ్రహణోపచారౌ కృత వివాహకర్మాణౌ ప్రజానాం పితరౌ తౌ ఉమామహేశ్వరౌ పద్మాసనస్థాయ పద్మాసనోపవిష్టాయ పితృణాం పిత్రే పితామహాయ బ్రహ్మణే. పితామహో విరించౌ స్యాత్ तातस्य जनकेऽपि च इति विश्वः। पितृव्य मातुल मातामह पितामहाः इति निपातनात् साधुः। प्रणेमतुः नमश्चक्रतुः। पितामहस्य पित्रोरपि पूज्यत्वादिति भावः।
वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति। वाचस्पतिः सन्नपि सोष्टमूर्तौ त्वाशास्य चिन्तास्तिमितो बभूव।
वधूरिति वधूः कन्या, विधात्रा ब्रह्मणा, हे कल्याणि शोभने, वीरः प्रसवः अपत्यम्, यस्याः सा वीरप्रसवा वीरसूः भवेति प्रतिनन्द्यते स्म। आशिषम् उक्त्वा इत्यर्थः। सः विधाता वाचस्पतिः वागीश्वरः अपि सन् कस्कादिषु पाठात् साधुः। अष्टमूर्तौ शिवे तु आशास्यम् आकाङ्क्ष्यम् तत्र चिन्ता विचारः तस्याम् स्तिमितः मन्दः बभूव। तस्य निरीहस्य आशास्याभावात् आशिषि स्तिमितत्वमित्यर्थः।
क्लृप्तोपचाराम् चतुरस्रवेदीम् तावेत्य पश्चात् कनकासनस्थौ जायापती लौकिकमेषणीयम् आर्द्राक्षतारोपणमन्वभूताम्।
क्लृप्तेति तौ जायापती वधूवरौ पश्चात् नमस्कारानन्तरम् क्लृप्ताः रचिताः उपचाराः पुष्परचनादयः यस्याम् ताम् चतुरस्रवेदीम् एत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकम् लोके विदितम् आचारप्राप्तमित्यर्थः। अत एव एषणीयम् आशास्यम् तथा हि लौकिकाचारम् मनसापि न लङ्घयेत् इति शास्त्रात् अवश्यकर्तव्यमित्यर्थः। इषेः इच्छार्थात् अनीयर्प्रत्ययः। आर्द्राक्षतारोपणम् अन्वभूताम्।
पत्रान्तलग्नैर्जलबिन्दुजालैः आकृष्टमुक्ताफलजालशोभम् तयोरुपर्यायत नालदण्डम् आधत्तलक्ष्मीः कमलातपत्रम्।
पत्रान्तेति लक्ष्मीः श्रीदेवी पत्रान्तेषु दलप्रान्तेषु लग्नैः जलबिन्दुजालैः आकृष्टा आहृता मुक्ताफलजालेन प्रान्तलम्बिना मुक्ताकलापेन या शोभा सा येन तत्तथोक्तम् आयतम् दीर्घम् नालमेव दण्डः यस्य तत् कमलमेव आतपत्रम् तत्तयोः उपरि आधत्त दधौ।
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनम् नुनाव संस्कारपूतेन वरम् वरेण्यम् वधूम् सुखग्राह्य निबन्धनेन।
द्विधेति अथ सरस्वती वाग्देवी द्विधा संस्कृतप्राकृतरूपेण द्वैविध्येन प्रयुक्तेन उच्चारितेन वाङ्मयेन शब्दजालेन तन्मिथुनम् नुनाव तुष्टाव नुस्तुतौ इति धातोर्लिट् केन कमित्याह संस्कारेति संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्ययविभागशुद्धेन संस्कृतेनेत्यर्थः वरेण्यम् वरणीयम् श्लाघ्यमित्यर्थः वृणोतेः औणादिकः एण्यप्रत्ययः वरम् वोढारम् शिवम् सुखेन ग्राह्यम् सुबोधम् निबन्धनम् रचना यस्य तेन वाङ्मयेन प्राकृतभाषया इत्यर्थः वधूम् नुनाव इत्यनेन सम्बन्धः
तौ सन्धिषु व्यञ्जितवृत्तिभेदम् रसान्तरेषु प्रतिबद्धरागम् अपश्यताम् अप्सरसाम् मुहूर्तम् प्रयोगमाद्यम् ललिताङ्गहारम्
ताविति तौ दम्पती सन्धिषु मुखादिनिर्वहणान्तेषु पञ्चसन्धिषु तदुक्तम् दशरूपके मुखम् प्रतिमुखम् गर्भः सावमर्षोपसंहृतिः इति व्यञ्जितवृत्तिभेदम् स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् रसानुगुण्येनेति शेषः तदुक्तम् भूपालेन कौशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती रौद्रबीभत्सयोर्वृत्तिः नियतारभटी पुनः शृङ्गारादिषु भावज्ञैः रसेष्विष्टा तु भारती तथा कौशिक्यारभटी चैव सात्वती भारती तथा चतस्रो वृत्तयो ज्ञेयाः तासु नाट्यम् प्रतिष्ठितम् इति रसान्तरेषु शृङ्गारादिरसभेदेषु शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः शृङ्गारहास्यकरुणरौद्रवीरभयानकाः बीभत्साद्भुतशान्ताख्याः रसाः पूर्वैरुदाहृताः इति प्रतिबद्धरागम् प्रतिनियमेन प्रवर्तितः वसन्तललितादिरागः यस्मिन् तम् यस्मिन् रसे यः रागः विहितः तदनुसारेण प्रयुक्तरागमित्यर्थः यथाः काहलः रौद्रेद्भुते तथा वीरे पुंरागेण प्रगीयते शृङ्गारहास्यकरुणाः स्त्रीरागेण प्रकीर्तिताः भयानके च बीभत्से शान्ते गेयो नपुंसके इति ललिताङ्गहारम् मधुराङ्गविक्षेपम् अङ्गहारोऽङ्गविक्षेपः इत्यमरः आदौ भवम् आद्यम् रूपकान्तरप्रकृतिभूतमित्यर्थः तदुक्तम् आहुः प्रकरणादीनाम् नाटकम् प्रकृतिम्बुधाः इति अप्सरसाम् उर्वश्यादीनाम् प्रयुज्यते इति प्रयोगः रूपकम् नाटकमित्यर्थः आद्यमिति विशेषणात् तम् मुहूर्तम् अपश्यताम् दृष्टवन्तौ पाघ्राध्मास्था इत्यादिना दृशेः पश्यादेशः
देवास्तदन्ते हरमूढभार्यम् किरीटबद्धाञ्जलयो निपत्य शापावसाने प्रतिपन्नमूर्तेः ययाचिरे पञ्चशरस्य सेवाम्
देवा इति देवाः इन्द्रादयः तदन्ते तस्य प्रयोगदर्शनस्य अन्ते अवसाने ऊढभार्यम् परिणीतदारम् हरम् किरीटेषु बद्धाः अञ्जलयः येषान्ते तथोक्ताः सन्तः निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेः लब्धशरीरस्य परिणेष्यति पार्वतीम् यदा इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः. पञ्चशरस्य कामस्य कर्तुः सेवाम् ययाचिरे. पुनः समासादितशरीरस्य तस्य सेवा स्वीक्रियताम् इति प्रार्थयामासुः इत्यर्थः. दुह्याच्पच् इत्यादिना द्विकर्मकत्वम्.
तस्यानुमेने भगवान् विमन्युः व्यापारमात्मन्यपि सायकानाम् कालप्रयुक्ता खलु कार्यविद्भिः विज्ञापना भर्तृषु सिद्धिमेति.
तस्येति विमन्युः विगतक्रोधः भगवान् ईश्वरः आत्मनि अपि तस्य कामस्य सायकानाम् व्यापारम् अनुमेने. तथा हि कार्यविद्भिः कार्यज्ञैः अथवा कालविद्भिः अवसरज्ञैः काले योग्यावसरे प्रयुक्ता अनुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिम् एति खलु सफला भवतीत्यर्थः. अयमेव अस्य स्मरसेवास्वीकारः यत् आत्मन्यपि तत्सायकव्यापारम् अङ्गीकृतवान् इति.
अथ विबुधगणांस्तान् इन्दुमौलिर्विसृज्य क्षितिधरपतिकन्याम् आददानः करेण कनककलशयुक्तम् भक्तिशोभासनाथम् क्षितिविरचितशय्यम् कौतुकागारमागात्.
अथेति अथ इन्दुमौलिः ईश्वरः तान् विबुधगणान् विसृज्य क्षितिधरपतिकन्याम् पार्वतीम् करेण आददानः कनककलशयुक्तम् मङ्गलार्थम् अन्तर्निहितम् हेममयपूर्णकुम्भम् भक्तयः पुष्पादिरचनाः तासाम् शोभया सनाथम् सहितमित्यर्थः. क्षितिविरचितशय्यम् क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पम् यस्मिंस्तत् तथोक्तम् कौतुकागारम् आगात् शय्यागृहम् जगाम. अत्र आश्वलायनः. अत ऊर्ध्वमक्षारालवणाशिनौ अधश्यायिनौ ब्रह्मचारिणौ स्याताम् इति. अत ऊर्ध्वम् विवाहात् ऊर्ध्वम् आत्रिरात्रादिति शेषः. त्रिरात्रम् द्वादशरात्रम् वा इति वचनात्. तथा कामशास्त्रेऽपि अथ परिणयरात्रौ प्रक्रमेणैव किञ्चित् तिसृषु च रजनीषु स्तब्धभावा दुनोति. त्रिदिनमिह न भिन्द्यात् ब्रह्मचर्यम् न च अस्याः हृदयम् अननुरुध्य स्वेच्छया नर्म कुर्यात् इति.
नवपरिणयलज्जाभूषणाम् तत्र गौरीम् वदनमपहरन्तीम् तत्कृताक्षेपमीशः अपि शयनसखीभ्यो दत्तवाचम् कथञ्चित् प्रमथमुखविकारैर्हासयामासगूढम्.
नवेति तत्र कौतुकागारे ईशः ईश्वरः नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणम् यस्याः ताम् अत एव तेन ईश्वरेण कृताक्षेपम् कृताकर्षणम् उन्नमितमिति यावत् वदनम् अपहरन्तीं साचीकुर्वन्तीं अयं लज्जानुभावः अनुभावान्तरं आह शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपि नर्मसहचरीभ्योऽपीत्यर्थः कथञ्चित् कृच्छ्रेण दत्तवाचं दत्तोत्तरां गौरीं प्रमथाः भृङ्गिरिटिप्रभृतयः हास्यरसाधिदेवताः पशुपतेः पारिषदाः यथाः भरतः शृङ्गारो विष्णुदैवत्यो हास्यप्रमथदैवतः इति प्रमथास्युः पारिषदाः इत्यमरः तेषाम् मुखविकारैः मुखविकृतचेष्टितैः गूढम् अप्रकाशम् हासयामास हासाद्युपायैः लज्जाम् अपाकर्तुम् प्रवृत्त इत्यर्थः यथाः गोनर्दः हासेन मधुना नम्रवचसा लज्जिताम् प्रियाम् विलुप्तलज्जाम् कुर्वीत निपुणैश्च सखीजनैः इति श्रीमन्महामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितया सञ्जीवनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये उमापरिणयो नाम सप्तमः सर्गः।